ध्यानम् कालाभ्राभां कटाक्षैररिकुलभयदां मौलिबद्धेन्दुरेखां शङ्खं चक्रं कृपाणं त्रिशिखमपि करैरुद्वहन्तीं त्रिनेत्रां सिंहस्कन्धादिरूढां त्रिभुवनमखिलम् तेजसा पूरयन्ति ध्यायेद्दुर्गां जयाख्यां त्रिदश परिवृतां सेवितां सिद्धिकामैः ॐ ऋषिरुवाच सुरगणा निहतेति वीर्ये तस्मिन् दुरात्मनि सुरारि बले च देव्या तां तुष्टुवुः प्रणति नम्रशिरोधरां सा वाग्भिः प्रहर्ष पुलकोद्गमचारुदेहाः वाग्भिः प्रहर्ष पुलकोद्गमचारुदेहाः देव्याय याततमिदं जगदात्मशक्त्या निःशेषदेवगणशक्तिसमूहमूर्त्या तामम्बिकामखिलदेवमहर्षिपूज्या भक्त्या न तास्म विदधातु शुभानि सा नः भक्त्या न तास्म विदधातु शुभानि सा नः यस्य प्रभावमतुलं भगवाननन्तो ब्रह्माहरश्च न हि वक्तृमलं बलं च सा चण्डिकाखिल जगत्परिपालनाय नाशाय चाशुभभयस्य मतिं करोतु नाशाय चाशुभभयस्य मतिं करोतु या श्री स्वयं सुकृतिनां भवनेश्वलक्ष्मीः पापात्मनां कृतधियां हृदयेषु बुद्धिः श्रद्धा सतां कुलजनप्रभवस्य लज्जा तां त्वां न तास्म परिपालय देवि विश्वम् तां त्वां न तास्म परिपालय देवि विश्वम् वर्णयाम तव रूपमचिन्त्यमेतत् किं चातिवीर्यमसुरक्षयकारि भूरि किं चाहवेषुचरितानि तवातियानि सर्वेषु देव्यसुरदेवगणाधिकेषु सर्वेषु देव्यसुरदेवगणाधिकेषु हेतुः समस्तजगतां त्रिगुणापि दोषैः न ज्ञायसे हरिहरादिभिरप्यपार सर्वाश्रयाखिलमिदं जगदंशभूतम् अव्याकृता हि परमा प्रकृतिस्वमाद्या अव्याकृता हि परमा प्रकृतिस्वमाद्या यस्या समस्तसुरता समुदीरणेन तृप्तिं प्रयाति सकलेषु मखेषु देवी स्वाहासि वै पितृगणस्य तस्य च तृप्तिहेतुः उच्चाल्यसे त्वमत एव जनैः स्वदा च उच्चार्यसे त्वमत एव जनैः स्वधा च या मुक्तिहेतुरविचिन्त्य महाव्रता त्वम् अभ्यस्यसे सुनियतेन्द्रियतत्त्वसारैः मोक्षार्थिभिर्मुनिभिरस्तसमस्तदोषैः विद्यासि सा भगवती परमा हि देवी विद्यासि सा भगवती परमा हि देवी सु विमलख्य जुषां निधानम् उद्गीथरम्य पदपाठवतां च सानां देवित्रयी भगवती भवभावनाय वार्तासि सर्वजगतां परमार्तिहन्त्री वार्तासि सर्वजगतां परमार्तिहन्त्री मेधासि देवि विदिताखिलशास्त्रसारा दुर्गासि दुर्गभवसागरनौरसङ्गा श्रीकैटभारि हृदयैककृताधिवासा गौरी त्वमेव शशिमौलिकृतप्रतिष्ठा गौरी त्वमेव शशिमौलिकृतप्रतिष्ठा ईषत्सहासममलं परिपूर्णचन्द्र बिम्बानुकारि कनकोत्तमकान्तिकान्तम् अत्यद्भुतं प्रहृतमातरुषा तथापि वक्त्रं विलोक्य सहसा महिषासुरेण वक्त्रं विलोक्य सहसा महिषासुरेण दृष्ट्वा तु देवि कुपितं भ्रुकुटीकरालम् उद्यच्च शाङ्कसदृशच्छ वियन्न सद्यः प्राणान् मुमोच महिषस्तदतीव चित्रम् कैर्जीव्य देहि कुपितान्तकदर्शनेन कैर्जीव्य देहि कुपितान्तकदर्शनेन प्रसीद परमा भवती भवाय सत्यो विनाशयसि को भवती कुलानि विज्ञातमेतदधुनैव यदस्तमेतत् नीतं बलं सुविपुलं महिषासुरस्य नीतं बलं सुविपुलं महिषासुरस्य ते सम्मता जनपदेषु धनानि तेषां तेषां यशांसि न च सीदति धर्मवर्गः धन्यास्त एव निवृतात्मज भृत्यदारा येषां सदाभ्युदयदा भवती प्रसन्ना येषां सदाभ्युदयदा भवती प्रसन्ना धर्माणि देवि सकलानि सदैव कर्माणि अत्यादृतः प्रतिदिनं सुकृती करोति स्वर्गं प्रयाति च ततो भवती प्रसादात् लोकत्रयेऽपि फलदा ननु देवितेन लोकत्रयेपि फलदाननु देवि तेन दुर्गे स्मृता हरसि भीतिमशेष जन्तोः स्वस्तै स्मृता मतिमतीव शुभं ददासि दारिद्र्य दुःख भयहारिणि का त्वदन्या सर्वोपकार करणाय सदार्द्र चित्ता सर्वोपकार करणाय सदार्द्र चित्ता जगदुपैति सुखं तथैते कुर्वन्तु नाम नरकाय चिराय पापं संग्राम मृत्युमधिगम्य दिवं प्रयान्तु मत्वेति नूनमहितान् विनिहंसि देवी मत्वेति नूनमहितान् विनिहंसि देवी दृष्ट्वैव किं न भवति प्रकरोति भस्म सर्वासुरा नरिषु यत्प्रहिणोषि शस्त्रम् लोकान् प्रयान्तु रिपवोऽपि हि शस्त्रभूता इत्थं मतिर्भवति तेष्वपि तेति साध्वी इत्थं मतिर्भवति तेष्वपि तेति साध्वी खड्गप्रभानि करविस्फुरणैस्ततोऽग्रैः शूलाग्रकान्ति निवहेन दृशोऽसुराणा यन्नागता विलयमंशु मदिन्दुखण्ड योग्याननं तव विलोकयतां तदेतत् योग्याननं तव विलोकयतां तदेतत् दुर्वृत्तवृत्तशमनं तव देवि शीलम् रूपं तथैतद विचिन्त्य मतुल्यमन्यैः वीर्यं च हन्तृहृतदेव पराक्रमाणा वैरिष्वपि प्रकटितैव दया त्वयेत्थम् वैरिष्वपि प्रकटितैव दया त्वयेत्थम् भवतु तेस्य पराक्रमस्य रूपं च शत्रुभयकार्यति हारि कुत्र चित्ते कृपा समरनिष्ठुरता च दृष्टा त्वय्येव देवि वरदे भुवनत्रयेऽपि त्वय्येव देवि वरदे भुवनत्रयेऽपि त्रैलोक्यमेतदखिलं रिपुनाशनेन त्रातं त्वया समरमूर्धनि तेऽपि हत्वा नीता दिवं रिपुगणाभयमप्यपास्तम् अस्माकमुन्मदसुरारिभवं नमस्ते अस्माकमुन्मदसुरारिभवं नमस्ते शूलेन पाहि नो देवि पाहि खड्गेन चाम्बिके घण्टास्वनेन नः पाहि चापजानिस्वनेन च प्राज्यां रक्ष प्रतीच्यां च चण्डिके रक्ष दक्षिणे ब्राह्मणेनात्मशूलस्य उत्तरस्यां तथेश्वरी ब्राह्मणेनात्मशूलस्य उत्तरस्यां तथेश्वरी सौम्यानि यानि रूपाणि त्रैलोक्ये विचरन्ति ते यानि चात्यन्त घोराणि तै रक्षास्मांस्तथा भुवम् खड्गशूल गदादीनि यानि चास्त्राणि ते अम्बिके करपल्लव सङ्गीनि तैरस्मान् रक्ष सर्वतः करपल्लव सङ्गीनि तैरस्मान् रक्ष सर्वतः